एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्रिणः राष्ट्रिय सुरक्षा परिषदः अध्यक्षस्य च सुशीला कार्कीणः अध्यक्षतायां परिषदः उपवेशः सम्पन्नोऽस्ति। सिंहप्रासादवर्तिनी परिषदः सचिवालये ह्य उपविष्टे परिषदः चत्वारिंशत्तमे उपवेशे वर्तमानान्तरराष्ट्रियेषु क्षेत्रीयेषु राष्ट्रियेषु सुरक्षायाः सामयिकेषु विषयेषु च समीक्षा विहिता अस्ति इति रक्षा मन्त्रालयस्य सचिवः परिषदः सदस्य सचिवः सुमन राज अर्यालः असूचयत्। उपवेशे गृहमन्त्री ओम प्रकाश अर्यालः, ऊर्जा जलस्रोत सेचन मन्त्री कुलमान घिसिङ, मुख्य सचिवः एकनारायण अर्यालः, प्रधान सेनापतिः अशोक राज सिग्देलश्च सहभागिनः आसन्। रौतहट जनपदस्य गौरनगरपालिकायाः प्रथमवडा क्षेत्रस्य कानुपट्टीवर्तिनी अन्तरमार्गखण्डे जलयुक्ते गर्ते निमज्य तिस्रः बालिकाः मृताः सन्ति। ह्य राजदेवी नगरपालिकायाः अष्टमवडा क्षेत्रस्य लक्ष्मीपुरस्थानात् घासस्य कर्तनाय गताः त्रयोदश वर्षीया आस्था कुमारी बैठा, पञ्चदश वर्षीया राधनी कुमारी यादवः, पञ्चदश वर्षीया मौसमी कुमारी बैठा च जलप्लवस्य जलयुक्ते गर्ते निमज्य मृताः वर्तन्ते इति रौतहट जनपद प्रहरी कार्यालयेन ज्ञापितमस्ति। जले निमग्नाः चत्वारो जनाः स्थानीयैः उद्धृताः सन्ति इति प्रहरिणा ज्ञापितमस्ति। संचार सूचना प्रविधि मन्त्री जगदीश खरेलः निर्वाचनस्य वातावरणं निर्मातुं संचार माध्यमान् अनुरोणद्धि। सिंहप्रासादवर्तिनी मन्त्रालये ह्य विभिन्नानां संचार माध्यमानां सम्पादकैः प्रतिनिधिभिस्सह सम्भूते विमर्शने मन्त्री खरेलः फाल्गुन मासस्य एकविंशे दिवसे निर्वाचनं सम्पादयितुं सर्वकारेण सम्पूर्णं पूर्वकार्यं विधीयमानमस्ति इति चर्चयन् निर्वाचनस्य कृते समीचीनस्य वातावरणस्य निर्माणाय भूमिका निर्वोढव्या इति अवोचत्। सम्प्रति निर्वाचनस्य वातावरणं निर्मातुं राजनीतिकदलैरपि दायित्ववायुभिर्भाव्यमिति चर्चयन् मन्त्री खरेलः व्यवस्थापकीय पक्षे सर्वकारेण सर्वविधाः उपायाः अवलम्बन्ते इति प्रावोचत्। विमर्शने सहभागिभिः जनैः निर्वाचनस्य माध्यमेन देशे पद्धतिं प्रणालीं च संस्थाप्य देशम् आर्थिकीं समृद्धिं प्रति नेतुं परामृष्टमासीत्। स्वास्थ्य जनसंख्या मन्त्रालयेन चिकित्सा परिचारिकाणां स्वास्थ्यकर्मिणां च न्यूनतम पारिश्रमिकं सर्वकारीय सेवायाः कर्मचारिभिः तुल्यं विधातुं निर्दिष्टं वर्तते। मन्त्रालयस्य प्रवक्ता डाक्टर प्रकाश बुढाथोकी सर्वेभ्यः सर्वकारीय चिकित्सालयेभ्यः प्रतिष्ठानेभ्यः चिकित्सा महाविद्यालयेभ्यः सामुदायिकेभ्यः नैजेभ्यश्च चिकित्सालयेभ्यश्च पत्राचारं विधाय स्वास्थ्य परिचारिकाणां स्वास्थ्यकर्मिणां च न्यूनतम पारिश्रमिकं सर्वकारीय सेवया तुल्यं विधातुं सर्वे निर्दिष्टाः सन्ति इति असूचयत्। स्वास्थ्य जनसंख्या मन्त्रालयेन जेन्जी यूनां समूहस्य आन्दोलने आहतानां जनानां वर्गीकरणं विधास्यते। गत भाद्र मासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः जेन्जी यूनां समूहस्य आन्दोलने आहतानां जनानां वर्गीकरणाय स्वास्थ्य मन्त्रालयस्य गुणस्तर मापन नियमन महाशाखायाः प्रमुखस्य डाक्टर सरोज शर्मणः संयोजकत्वे प्राविधिक समितिः संघटिता अस्ति। समितौ दशजनाः विज्ञाः समाविष्टाः सन्ति। आहतानां जनानां वर्गीकरणस्य मानदण्डस्य निर्माणस्य कार्यं प्रारब्धमस्ति इति संयोजकः डाक्टर शर्मा असूचयत्। स्वास्थ्य मन्त्रालयस्य तथ्याङ्कस्य अनुसारेण सम्प्रति चिकित्सालयानाम् अन्तरङ्ग विभागेषु उपचाराय विद्यमानानां संख्या सहस्रद्वयं शतत्रयं षोडश च वर्तन्ते। गृहमन्त्री ओमप्रकाश अर्यालः समुदायानाम् अग्रेसरतां विना विपन्न्यूनीकरणं न सम्भवतीत्यतः सर्वेषां समन्वयस्य सहकार्यस्य सहभागितायाश्च आवश्यकता भवति इति उक्तवान् अस्ति। विपन्न्यूनीकरणस्य एतत्ख्रीष्टवर्षीयस्य अन्तर्राष्ट्रिय दिवसस्य अवसरे आयोजिते विपन्न्यूनीकरण सम्बद्धे चतुर्थे राष्ट्रिय सम्मेलने गृहमन्त्री अर्यालः सर्वकारेण सर्वेषां समन्वयेन सहकारेण सहभागितया च विपन्न्यूनीकरण व्यवस्थापनस्य कार्यं विधातव्यम् इत्यत्र बलं प्रादात्। दीर्घकालात् प्रतीक्षायां वर्तमानस्य नेपाली विद्यार्थिनः विपिन जोशिनः अत परं जीवितावस्थायामेव स्वदेशं प्रत्यागमनस्य आशा नैराश्ये परिणता अस्ति। बीबीसी नाम्न्या अन्तर्राष्ट्रिय समाचार संस्थया इजरायल टाइम्स इत्यनेन सह जोशी जीवितावस्थायां नास्तीति समाचारः प्रकाशितोऽस्ति। हमास विद्रोही समूहेन सार्वजनिक कृतायां सूच्यां गाय इलोज, योशी सारावी, विपिन जोशी, ड्यानियल परेज इत्येतेषां नामानि समाविष्टानि वर्तन्ते। विज्ञप्तौ शवस्य हस्तान्तरणं कदा भविष्यति इति स्पष्टीकृतं नास्ति। इजरायल देशीय सेनायाः अनुसारेण रेडक्रॉस संस्थायाः प्रतिनिधयः चतुर्णामेव शवानां ग्रहणाय दक्षिण गाजा नगरं प्रति प्रस्थिताः सन्ति। बीबीसी समाचार संस्थायाः अनुसारेण विगताश्चात्रिंशदुत्तर सप्तदशात् दिनेभ्य स्वस्य नियन्त्रणे विद्यमानस्य नेपाली विद्यार्थिनः जोशिनः शव इजरायल देशाय समर्प्यते। एतत्पूर्व जोशिनः अवस्था अज्ञातावस्थायाम् आसीत्। वर्षायामस्य कारणेन स्थगितं मेलंची पेयजलस्य काष्ठमण्डपे आनयन कार्यं प्रारब्धमस्ति। वर्षायामे मेलंची नद्यां दुरापन्नयोः जलविप्लव भूस्खलनयोः कारणेन पेयजलायोजनायां क्षतेः सम्भावनां विचार्य स्थगितं पेयजलस्य आनयनं सम्प्रति पुनः प्रारब्धमस्ति। अस्यैव आश्विन मासस्य अष्टादश दिवसस्य वृष्टेः पश्चात् दुरापन्नस्य भूस्खलनस्य कारणेन अवरुद्धस्य मेचीराजमार्गान्तर्गतः इलामनगरपालिकायाः नवमर्च ओडाक्षेत्रवर्ती इलामराजदुआली मार्गखण्डः तत्कालं सञ्चालनस्य शक्यावस्थायां न वर्तते। जटिल भूसंरचनायाः कारणेन मार्गं सञ्चालयितुं शक्तं नास्तीति इलाम जनपदस्य प्रमुख जनपदाधिकारी सुनीता नेपालः असूचयत्। ओमान देशे समायोज्यमानायाः अन्तर्राष्ट्रिय क्रिकेट क्रीडा परिषदः अन्तर्गतायाः टी विंशति क्रिकेट क्रीडा विधायाः विश्वस्तरीय स्पर्धायां क्रीडनाय एशिया पूर्व एशिया प्रशान्त क्षेत्रात् क्रिकेट क्रीडा समूहानां चयनाय आयोजितायां षण्णां देशानां क्रिकेट क्रीडायां नेपालस्य द्वितीयायां क्रीडायां कतारदेशं पञ्चभि धावनांक हि पराजित्य नेपालः विजयी सम्भूतोऽस्ति। ओमानदेशस्य अल अमीरतवर्तिन्यां क्रिकेट क्रीडा रंगशालायां ह्य क्रीडितायां क्रीडायां नेपालेन कतारदेशं पञ्चभि धावनांकै पराजित्य सुपर सिक्स अन्तर्गतायां क्रीडायां द्वितीयवारं विजयः सम्प्राप्तोऽस्ति। रविवासरे क्रीडितायां प्रथम क्रीडायां नेपालेन यूएई देशं एकेन धावनांकेन पराजित्य रोमाञ्चकारी विजयः अधिगतः आसीत्। गतरात्रौ क्रीडितायां क्रीडायां नेपालेन प्रदत्तस्य अष्टचत्वारिंशदुत्तरैकशतस्य धावनांकानां लक्ष्यस्य प्रत्युत्तरे कतारदेशः 10.59 ओवरांकेषु सर्वान् क्रीडकान् हापित्वा द्वाचत्वारिंशदुत्तरशत धावनांकान् एव अर्जितवान् आसीत्। इति समाचारः।